गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत ऋषभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातकिषु शिवतमा शिवम् बभूवते धनुः शिवाचरव्या यातवतया नो रुद्रमृडया या ते रुद्रशिवा तनोरघोरा पापकाशिनी तया नस्तनुवाचन्त मया गिरिशन्ताभिजाकशीः यामिषुम् गिरिशन्त हस्तेऽभिभर्ष्यत्सवे शिवाङ्गिरित्रताम् कुरु माघिगुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा न सर्वमिज्जगद यक्ष्मगुं सुमनासत् अध्यवोच ददि वक्ता प्रथमो देव्योऽभिषक् अहे गच्छ सर्वाञ्जम् भयन् सर्वाच्च यातु धान्यः असुव्यत्ताम्रो अरुण उत बभ्रत्सु मङ्गलः ये चे मागुम् रुद्रा अभिदो दिक्षुश्रिताः सहस्रशो वैशागुम् हेड इमहे असभ्यो वसर्पति नीलग्रेवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुतहाद्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अधोगे अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्जतन्वनस्त्वमुभयोरात्रियोर्ज्याम् याश्च ते हस्त इष वपराता भगवो वपा अवतत्यदनुस्त्वगुम् सकस्राक्षसते शुधे निषेप्य शल्याणामुखा शिवो न सुमना भव विज्यम् तनुक्कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येष व आभुरस्य निशम् गतिः या ते हे धर्मी दुष्टमहस्ते बभूवते धनुः तयात्मान् विश्वतत्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानातताय धृष्णवेगे उभाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने परिते धन्वनोखेतिरस्मान्वृणक्तु विश्वतः अधो गगिषुदित्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन्निश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्धकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। నమో హిరణ్య బాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమ తస్మిన్ చ రాయత్రిశీమతే పదేనాం పతయే నమో నమో బభ్లుషాయ వ్యాధినేన్నానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తతావినేక్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ కృత్స్నవేతాయ ధావతే సత్వనాం పతయే నమః నమస్తగమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ కతుభాగ నిషంగిణే స్తేనానాం పతయే నమో నమో నిషంగిణ గిషుధిమతే తస్కరాణాం పతయే నమో నమో వంజతే పరివంజతే సాయూనాం పతయే నమో నమో నిచేరవి పరిచరాగారణ్యానాం పతయే నమో నమ శ్రీకావిభ్యో జిగాగుం సద్వ్యోముష్ణతాం పతయే నమో నమో శ్రీమద్భ్యో నక్తం జరద్య ప్రగ్రంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఘిషుమద్భ్యోధన్వా విభ్యశ్చ వో నమో నమ ఆతన్వానేభ్య ప్రదిదధానేభ్యశ్చ వో నమో నమ ఆగచ్చద్భ్యో వితృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ తిష్టద్భ్యో ధావద్భ్యశ్చ వో నమో నమ సభాభ్యసభాపదిభ్యశ్చ వో నమో నమో అశ్వేభ్యోశ్వపదిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో విభిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగుంహదేభ్యశ్చ వో నమో నమో కృత్స్నేభ్యో కృత్సపదిభ్యశ్చ వో నమో నమో ప్రాతేభ్యో వ్రాతపదిభ్యశ్చ వో నమో నమో గణేభ్యో గణపదిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః తుల్లకేభ్యశ్చ వో నమో నమో రథేభ్యో రథేభ్యశ్చ వో నమో నమో రథేకేభ్యో రథపదిభ్యశ్చ వో నమో నమ సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమ స్వక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఘిషుకృద్భ్యో జన్మకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వర ಜ್ಞಾನೇಭ್ಯಶ್ಚ
ಭೋ ನಮೋ ನಮಸ್ವಭ್ಯಶ್ವಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಚರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲ ಗ್ರೀವಾಯ ಚ ಸ್ಥಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ವ್ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತದನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿಪಿಷ್ಟಾಯ ಚ ನಮೋ ಮೇಡುಟ್ಟಮಾಯ ಚೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೀಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ವನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮ ಆಶವೇ ಚಾಜಿರಾಯ ಚ ನಮ ಶೀಘ್ರಿಯಾಯ ಚ ಶೇಭ್ಯಾಯ ಚ ನಮ ಓರ್ಭ್ಯಾಯ ಚ ವಸ್ವನ್ಯಾಯ ಚ ನಮ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೇಭ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಯ ಚ ನಮ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸದ್ಯಾಯ ಚ ನಮೋ ಜ್ಞಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮ ಉರ್ವತ್ಯಾಯ ಚ ಕಲ್ಯಾಯ ಚ ನಮ ಶ್ಲೋಕ್ಯಾಯ ಚ ವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷ್ಯಾಯ ಚ ನಮ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮ ಆಶುಷೇಣಾಯ ಚಾಶುರಧಾಯ ಚ ನಮ ಶೂರಾಯ ಚ ವವಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೋಧಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿಣೇ ಚ ಕವಚಿನೇ ಚ ನಮ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ
ನಮೋ ದಂದುಭ್ಯಾಯ ಚ ಹನನ್ಯಾಯ ಚ ನಮೋ
ದೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷುಧಿಮತೇ ಚ ನಮ ತೀಷ್ಣೇಶವೇ ಚಾಯುಧಿನೇ ಚ ನಮ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮ ಶ್ರುತ್ಯಾಯ ಚ ಪಥ್ಯಾಯ ಚ ನಮ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮ ಸೋದ್ಯಾಯ ಚ ಸರಸ್ಯಾಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಶಂತಾಯ ಚ ನಮ ಕೋಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವಶ್ಯಾಯ ಚ ವಶ್ಯಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮ ಈದ್ರಿಯಾಯ ಚ ತಪ್ ಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾತ್ಸವ್ಯಾಯ ಚ ವಾತ್ಸುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ
ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ತಾಮ್ರಾಯ ಚಾರುಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ
ಅಗ್ರೇ ವಧಾಯ ಚ ದೂರೇ ವಧಾಯ ಚ ನಮೋ ಹಂದ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮ ಶಂಭವೇ ಚ ಮಯೋ ಭವೇ ಚ ನಮ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮ ತೀರ್ಥ್ಯಾಯ ಚ ಕೋಜ್ಯಾಯ ಚ ನಮ ಪಾರ್ಯಾಯ ಚ ವಾರ್ಯಾಯ ಚ ನಮ ಪ್ರತರಣಾಯ ಶೋತ್ತರಣಾಯ ಚ ನಮ ಆತಾರ್ಯಾಯ ಜಾಲಾದ್ಯಾಯ ಚ ನಮ ಷಷ್ಪ್ಯಾಯ ಜ ಭೇನ್ಯಾಯ ಚ ನಮ ಸಿಕತ್ಯಾಯ ಜ ಪ್ರವಾಕ್ಯಾಯ ಚ ನಮ ಇರಿಣ್ಯಾಯ ಜ ಪ್ರಪತ್ಯಾಯ ಚ ನಮ ಕೆಗುಂಶಿಲಾಯ ಜ ಕ್ಷಯಣಾಯ ಚ ನಮ
कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः चुष्ट्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्ध्याय च सौर्भ्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नदे च नमः आखिलदे च प्रखिलदे च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विजिन्मत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसत्पते दरिद्रन्नीलोकिता येषाम् पुरुषाणाम् येषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्च नाम मत् या ते रुद्र शिवा तनो शिवा विश्वाघ भेषजी शिवा रुद्रस्य भेषजी तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रबलामहे मतिम् यथा नश्रमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् प्रणो रुद्रोदनोमयस्कृलिक्षयद्वीराय नमसा विधेमते यच्चञ्चयोश्च मनुरायजे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अद्भगम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्रदीर्षः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु दीर्षः वीरान्मानो रुद्रभामितो वदेत् अविष्मन्तो नमसा विधेमते आरात्ते गोघ्नमुत पोरुषग्ने क्षयद्वीराय सुम् नमस्नेते अस्तो रक्षाजनो अलिजदेव ब्रूयता जनः शर्म यच्छद्विपर्हाः सुहिश्रुतम् गत्त सदंयुवानम् मृगन्न भीममुपहत्तुमुग्रम् मृगाजरिद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेते विणक्तु परित्रेशस्य दुर्मदिलगायोः अवस्तिला मगवद्भ्यस्तलुष्वमीवस्तोकायतनयाय मृडया मीढुष्टमशिवतमशिवो नः सुमना भव मे वृक्ष आयुधन्निदाय कृत्तिम् वसान आचलपि नागम् बिभ्रदागहि विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अलिभोम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मसे अस्मिन्महत्यन्नवेन्तरिक्षे भव अदि नीलग्रीवाशितिकण्ठा शर्वा अलः क्षमा जलाः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिन् जला नीलग्रीवा विलोहिताः ये भूतानामलिपतयो विशिकासः कपर्दिनः
ये अन्येषु विविध्यन्ति पात्रेषु पिपदो जनान् ये पथाम् पदि रक्षय ऐलभृदाय व्युदः एतेतानि प्रचलन्ति श्रृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुन्दश्च दिशो रुद्राविदस्तिरे तेषागुम् सहस्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि ये शावन्नम् वातो वरुषमिष वस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृदयन्तु तेयम् दिष्मो यश्च नो द्वेष्टितम् भोजम् भे ददामि यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वभुवनाविवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्यायन्तरे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरधिरुद्रो बालिशान्तकः तेनामेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हि अश्वशुस्तु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भृद्देवमसुरम् दुरस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोयुः शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अग्नाविष्टो सजोषसेवावर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे ध्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहस्य म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्योश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे परिमा च मे प्रतिमा च मे वश्वा च मे द्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सोक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपतम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शरम् च मे मयश्च मे प्रियम् च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे ऋतम् च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च म औद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णचरम् च मे क्षितिश्च मे कोयवाश्च मेनम् च मे क्षुच्च मे रेहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे स्रिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुधश्च म औषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अट्टश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे उषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे स्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मे दिपतिश्च म उपागुंसुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे మహేంద్రశ్చ మహాదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్టశ్చ మే పార్థివతశ్చ మే ఆర్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే దృష్ణయాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రామాణశ్చ మే స్వరవశ్చ మ ఉపలవాశ్చ మే దిశవనే చ మే త్రోణకలశ్చ మే వాయవ్యాని చ మే పూతభృచ్చ మ ఆధవనీయశ్చ మ ఆగ్నేయం చ మే అవిర్దానం చ మే గృహాశ్చ మే సలశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వవృతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే శక్తి రంగులయో దిశశ్చ మే యజ్ఞేన కల్పం తామృచ్చ మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్దదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవీ చ మే దిత్యవాచ్చ మే దిత్యౌహీ చ మే పంచావిశ్చ మే పంచావీ చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాచ్చ మే తుర్యౌహీ చ మే పష్టవాచ్చ మే పష్టౌహీ చ మ ఉక్షా చ మే వశా చ వృషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతామపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతా గుశ్రోత్రై యజ్ఞేన కల్పతాం మనోయజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మయజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏక విగుం సదిశ్చ మే త్రయో విగుం సదిశ్చ మే పంచ విగుం సదిశ్చ మే సప్త విగుం సదిశ్చ మే నవ విగుం సదిశ్చ మ ఏక త్రిగుం సచ్చ మే త్రయస్త్రిగుం సచ్చ మే చతస్రశ్చ మే ష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుం సదిశ్చ మే చతుర్విగుం సదిశ్చ మే ష్టా విగుం సదిశ్చ మే త్వాత్రిగుం సచ్చ మే షట్త్రిగుం సచ్చ మే చత్వారిగుం సచ్చ మే చతుశ్చత్వా ారిగుం సచ్చ మేష్టా చత్వారిగుం సచ్చ మే వాజశ్చ ప్రసవశ్చ విజశ్చ క్రతుశ్చ సువశ్చ ఊర్ధ్వా చ వ్యశ్నియశ్చాంత్యాయనశ్చాంత్యశ్చ భువనశ్చ భువనశ్చాధిపతిశ్చ ఇడా దేవోర్మనుర్యజ్ఞనిర్బృహస్పతిరుక్తా వదాని శగుంసి షద్విశ్వే దేవాసోర్తవాచ ప్రతివివా ధర్మా వాహిగుంసిర్మధుమనిష్యే మధుజనిష్యే మధువక్ష్యామి మధువదిష్యామి మధుమతే దేవేభ్యో వాచముద్యాతగుం శుశ్రూషేణ్యా మనుష్యేభ్యస్తం మా దేవ అవంతు శోభాయై పితరోను మదంతు ఓ शान्ति शान्ति शान्तिः ॐ तच्छयोरावृणीमहे गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स्वभूमिम् विश्वतो वृत्वा अत्यदिष्टद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्छ भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागस्य पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्ध्वबुधैर्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्महिद्मः शरद्धविः सप्तास्यासन् परिदयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अवग्नम् पुरुषम् पशुम् तम् यज्ञम् वरिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वभूतः संवृतम् प्रसदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान् आरण्याग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः रुचः सामानिरग्निरे छन्दागुंसिरग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केशो भयादतः गावो हजग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यददुः कतिराव्यकल्पयन् मुखम् किमस्य कौ बाहु का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमामनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शीर्षोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते
धाता पुरस्ताद्यमुदा जहार शक्र प्रविद्वान् प्रतिसस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरथा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्यातपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणा त्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागुस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आचातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आददामि तथा हि तत् खण्वन्मसि ॐ शान्ति शान्ति शान्तिः ॐ संसमित्युवसे वृषन्नग्ने विश्वान्यर्या इरस्पदे समिद्यसे स नो वसून्याभरा सङ्गच्छध्वम् संवदध्वम् सम्भो मनांसि जानताम् देवा भागय्यथा पूर्वे सञ्जानाना उपासते समानो मन्त्रः समिति समानी समानम् मनः सह चित्तमेषाम् समानम् मन्त्रमभिमन्त्रयेव समानेन वो हविषा जुहोमि समानिव आकोति समाना हृदयानि वः समानमस्तु वो मनो यथा वस्तु सहासति ॐ शान्ति शान्ति शान्तिः
प्रातरग्निम् प्रातरिन्द्रगुम्
हवामहे
प्रातर्मित्रा वरुणा प्रातरश्विना प्रातर्भगम् पोषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगुम् भुवेम प्रातर्जितम् भगमुग्रगुम् भुवेम वयम् पुत्रमतिशोर्यो विधर्ता आद्यच्छिद्यम् मन्यमानस्तुरश्चिद्राजा छिद्यम् भगम् भक्ष्येत्याः भग प्रणेतर्भग सत्यराजो भगे माम् धियमुदवदन्नः भग प्रणो जनयगोभिरश्वैर्भग प्रणभिर्नृवन्दस्याम उदेदानीम् भगवन्दस्यामोत प्रभित्व उत मध्ये अह्ना उदोदिता भगवन् सूर्यस्य वयम् देवानागुम् सुमतो स्याम भगगेव भगवागुमस्तु देवात्तेन वयम् भगवन्दस्याम तन्त्वा भगत् सर्व इज्जो हवेमि सनो भगपुरगेता भवेह समध्वरायोषसो न मन्ददतिक्रावे वशुचये पदाय अर्वाचीनम् वसुविदम् भगन्नो रथमिवाश्वाजिन आवहन्तु अश्वावतेर्गोमतेर्न उषासो वीरवते सदमुच्छन्तु भद्राः घृतम् दुहाना विश्वत प्रवीणा योऽयम् पात स्वस्तिभिः सदा नः यो माग्ने भागिनगुम् सन्दमथा भागम् चिकीर्षते अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु ॐ शान्ति शान्ति शान्तिः ॐ नाथ
येन रजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन् अग्निम् दूतम् वृणीमहे होतारम् व्यश्ववेदसम् अस्य यज्ञस्य सुक्रतुम् येषामीचे पशुपतिः पशूनाम् चतुष्पदामुत च द्विपदा निष्क्रेतोऽयम् यज्ञियम् भागमेतुर्राय स्पोषा यजमानस्य सन्तो ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्याय स्वसमेतु ते विश्वतत्सोमवृष्णियम् भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवेदन्तर्विश्वानि भेषज अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजेः गौरेमि मायसलिलानि तक्षत्येकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूवुषि सहस्राक्षरा
परमे व्योमन् ॐ
अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मूर्धादिवक्ककुत्पति पृथिव्या अयम् अपागुम् वेदागुंसि जिन्वते स्योना पृथिविभवा निक्षरा निवेशने यच्छानः शर्म सप्रदाः क्षेत्रस्य पतिना वयगुम् हितेनेव जयामसि गामश्वम् पोषयित्नवासनो मृडा ते दृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॐ उद्भुज्य स्वाग्ने प्रतिजागृह्येनमिष्टा पूर्ते सगुं सृजेदा वयम् च पुनः कृण्वग्स्त्वापितरम् युवानमन्मातागुंसे त्वयितन्तुमेतम् इदम् विष्णुर्विचक्रमे त्रेदानि दधे पदम् समूढमस्य पागुम् सुरे विष्णो रराटमसि विष्णो पृष्ठमसि विष्णो शप्त्रे स्तो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अतियदर्यो अर्हाद्युमद्विबाधि क्रतुमज्जनेषु यद्धेत यच्च वसर्त प्रजादत तस्मासु द्रविणम् देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यथाचार्याते अपि वस्तुतस्य तव प्रणीते तव शूरशर्मन्नाभिवासन्ति कवयस्व यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषे मत सुरुचोपेन आवह स बुध्निया उपमा अस्य विष्टात् सतश्च योनिमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवतात् स्थगिताय बृहस्पतये नमः ॐ प्रवशुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाग्नये सुपूतम् यो देव्यानि मानुषा जनो गुष्यन्दर्विश्वाणि विद्मना जिगादे इन्द्राणि मासु नारिषु सुपत्नीमहमश्रवम् न ह्यस्या अपरञ्चन जरसामरते पतिः इन्द्रम् वो विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवतात् सहिताय शुक्राय नमः ॐ शन्नो देवेरभिष्टय आपो भवन्तु पीतये के शय्योरभिश्रवन्तु नः प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जोमस्तन्नो अस्तु वयज्ञस्यामपदयोरगीणाम् इमम् यमप्रस्तरमायि सेदाङ्गिरोऽपि पितृभिः संवितानः आत्वा मन्त्रा कविशस्तावहन् द्वे नाराजन्हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः
ॐ
गयानश्चित्र आभुवधूते सदा वृतस्सका कया च तिष्ठया वृता आयङ्गौ प्रश्निरक्रमे दधनन् मातरम् पुनः पितरम् च प्रयन्सुवः यत्ते देवे निररुतिरापपन्ततामग्रे वा स्वविचर्यम् इदम् ते तद्दिश्यामायुषो न मध्या ततो जीव पितुमद्भि प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सगिताय राहवे नमः ॐ केतुम् कृण्वन्न केतवेपेशो मर्या अपेशसे समुषद्भिरजायताः ब्रह्मा देवानाम् पदवे कवेनाम् वृषर्विप्राणाम् महिषो मृगाणाम् शेनो गृध्राणाग स्वतितिर्वनानागुम् सोम पवित्रमत्येतिरे भन् सचित्रचित्रम् चितयन्तमस्मे चित्रक्षत्रचित्रतमम् वयोधा चन्द्रम् रयिम् पुरुवीरम् भृगन्तम् चन्द्रचन्द्राभिर्गृणते युवस्वा ॐ नदिदेवता प्रत्यदिदेवता सहितेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शान्ति शान्तिः ॐ जातवेदसे
सुनवामसो मम राति यतो निदहाति वेदः स्वनपर्षदति दुर्गानि विश्वानावेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरलितरसे नमः अग्ने त्वम् पालयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पुश्च पृथ्वीमौलान उर्वे भवतो कायतरयाय शय्योः विश्वानि नो दुर्गः जातवेदस्सिन्धुम् न नावदुरितादिपर्षि अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् बोध्यविता तनूना प्रतनाजितगुम् सहमानमुग्रमग्निगुम् उवेम परमास्वदत्तात् स नः पर्षदति दुर्गाणि विश्वाक्षामद्देवो अरिदुरितात्यग्निः प्रत्तोषिकमेद्यो अध्वरेषु सरा च होतानव्यश्च सत्सि स्वाञ्चाग्ने तनुवम् विप्रय स्वास्वभ्यम् च सौ भगवायजस्व कोभिज्जुश्च मयुजो निषिक्तम् तवेन्द्रविष्णोरनुसञ्चरेम नागश्च पृशमभिसंवसानो वैष्णवीम् लोकयमादयन्त कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् राजादिराजाय प्रसह्यसायिने नमो वयम् वै श्रवणाय कुर्महे समेकामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् ज्ञायेन मार्गेण महे महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति।